ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समवस्थितम्। ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समवस्थितम्। दैवतैश्च समागम्य द्रष्टमभ्यागतो रणम् उपागम्य ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः। राम राम महाबाहो शृणु गुह्यं सनातनम् येन सर्वानरीन् वत्स समरे विजयिष्यसि। आदित्य हृदयं पुण्यं सर्वशत्रुविनाशनम् जयावहौ जपे नित्यौ अक्षयौ परमं शिवम्। सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्। रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्। सर्वदेवात्मको हेष तेजस्वी रश्मिभावनः एष देवासुरगणान् लोकान् पातिगवस्थिभिः। एष ब्रह्मा च विष्णुश्च शिवस्कन्धः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः। पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः वायुर्वह्निः प्रजाप्राण ऋतुगर्ता प्रभाकरः। आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः। हरिदस्वः सहस्रार्चि सप्त सप्तिर्मरीचिमान् तिमिरोन्मदनः शम्भु स्त्वष्टा मार्ताण्ड अंशुमान्। हिरण्यगर्भः शिशिर स्तपनो भास्करो रविः अग्निगर्भोदितेः पुत्र शङ्खशिशिरनाशनः। व्योमनाथस्तमो भेदि रुग्यजुर्सामपारगः घनवृष्टिरपामित्रो विन्ध्यवीधिप्लवङ्गमः। आतपी मण्डली मृत्युः पिङ्गळः सर्वतापनः। रविर्विश्व महातेजा रक्तः सर्वभवोद्भवः। नक्षत्रग्रहताराणामधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मा नमोऽस्तु ते। नमः पूर्वाय गिरये पश्चिमे गिरये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः। जयाय जयभद्राय हर्यस्वाय नमो नमः। नमो नमः सहस्रांशो आदित्याय नमो नमः। नम उग्राय वीराय सारंगाय नमो नमः। नमः पद्मप्रबोधाय मार्तांडाय नमो नमः। ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः। तमोघ्नाय हिमघ्नाय शत्रुघ्नाय मितात्मने कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः। तप्तचामीकराभाय
वह्नये विश्वकर्मणे नमस्तमोऽभिविघ्नाय रुचये लोकसाक्षिणे नाशायत्येष वैभूतं तदेव श्रुचति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः एव सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष चैवाग्निहोत्रञ्च फलं चैवाग्निहोत्रिणां वेदाश्च क्रतुवैश्चैव क्रतूनां फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः
येनमापत्सु कृच्छेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन्नवसीदति राघवः पूजय स्वैनमेकाग्रो देवदेवं जगत्पतिम् एतद्विगुणितं जप्त्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि एवमुक्त्वा तदा गच्छो जगाम च यथागतम् एत श्रुत्वा महातेज नष्टशोको भवत्तदा धारयामास सुप्रीतो राघवः प्रयतात्मवान् आदित्यं प्रोक्ष जप्त्वा तु परं हर्षमवाप्तवान् त्रिराचम्य शुचिर्भूत्वा धनुराधाय वीर्यवान्
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागतं सर्वयत्नेन महता वधे तस्य धृतोऽभवत् अधरविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः निशिचरपति संशयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति